षष्ठोऽध्यायः ध्यानम् ॐ नागादीश्वरभीष्टरां फणिफणौतां सुरुरुरत्नावली पस्पदीयालतां दिवाकरनिभां नेत्रतयोभासितां मालाकुम्भकपालनिजकरां चन्द्रादचूर्णां परां सर्वगेश्वरभैरवं कानीलायां पद्मावतीं चिन्तयेत् ॐ ऋषिरुवाच इति कन्या वचो देव्या सदूतो मर्षपूरिता समाचश्च समागम्या द्वैतराजाय विस्तरात् तस्य दूतस्य तद्वक्याम् अकर्ण्यासुररात्त सक्रोधप्राहदैत्यानाम् अदीपां धूम्रलोचनां हे धूम्रलोचनाशु त्वां स्वसैन्यपरिवारिता तमानाया बलादुष्टं केशाकर्षन्नविह्वलां तत्परित्राणदा कश्चित् यदि वोष्टीटते परा सहन्तव्यो मरोपि यक्षो गन्धर्वकेव वा ऋषिरुवाच तेन ज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचना वृत्तः षष्ट्या सहस्राणाम् असुराणां द्रुतज्ञयो स दृष्ट्वा तं ततो देवीं तुहीनाचलसंस्थितां जगादौ चकीप्रायागीति मूलं शुम्भनिशुम्भयौ न चेत्प्रीत्याद्यपवति मद्भर्तारमुपयिष्यति ततो बलं नायाम्येष केशाकर्षन्नविह्वलम् देवी उवाच दैत्येश्वरेण प्रकितो बलवान् बलसंवृतः बलां नयासि ममेवां ततः कीते करोम्यहं ऋषिरुवाच इति उक्तः सुव्यदावताम् असुरो धूम्रलोचना हुकारेणैव तं भस्म सा चक्रम्बिका तथा अतः कृता महासैन्यम् असुराणां तत्तम्बिका वर्षसाय कैतिक्ष्णैस्ततः शक्तिप्रस्वदये ततो दूतसट्टः कोपात् कृत्वा नादं सभैरवम् पपातासुरसेनायां सिंहो देव्या स्वबाह्ना कंश्चित् क्रूरप्रहरिणां द्वैर्यानास्येन चापरान् अक्रम्य चादरिणान्यान् स जगान्नामकासुरान् केश्चांश्चित् पातक्यामस न कोहि कोष्ठानि केसरी तथा तलप्रकारेण शिरांसे कृतवान् पृथक् विचिन्ना बाहुशिरसा कृतास्तेन तत्तापरे पपोचरुदिरङ्कोष्टाद् अनीशं दूतकेसरा शनेन तद्बलं सर्वां शयानीतान् मकात्मना तेन केसरिणा देव्या वाहने नाति कोऽपि न श्रुत्वा तमसुरां देव्या नियतां धूम्रलोचनां बलं चक्षाहितां कृत्स्नां देवी केसरिणा तथा चुकोपदैत्याधिपति शुम्भः प्रस्फुरितादरा अज्ञापयामसचतो चन्द्रमुण्डौ महासुराौ He chanda kemunda balohir bahubi baribaritao tatra gachata gatwacha sasamani yatang lagu kishiswa krishya badwava yadiva sangshakyo yudhi tadashi shayudhir sarvir asurir vini hanyatam tasyang katayang dustayang singe cha vini patite shi gramagam yatang batwa grihitwa taham bikam om.